ओम श्री परमात्मने नमः। अथ पञ्चदशोऽध्यायः पुरुषोत्तम प्रातियोगः। श्री भगवानुवाच ऊर्ध्वमूलमदस्याकम् अश्वत्थं प्राहुरव्ययं चन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्। अरश्चोध्वं प्रसृतास्तस्य शाखा गुणप्रवृत्ता विषयप्रवालाः। अदस्य मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके न रूपमस्येह ततोपलभ्यते नान्तो न चादेर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूरमूलम् असङ्गशस्त्रेण हृदेन चित्वा ततः पदं तत्परिमार्कितव्यं यस्मिङ्गता न निवर्धन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी निर्माणमोह चितसङ्गदोषः अध्यात्मनित्याविनिवृत्तकामाः। वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैः गच्छन्त्यमूढाः परमव्ययं तत् न तद्भासयते सूर्यः न शशाङ्को न पावकः। यत्कत्वालनिवर्धन्ते तद्धाम परमं मम ममैवांशो जीवलोके जीवभूतः सनातनः। मनश्चेष्टानीन्द्रियाणि प्रकृतिस्थानि करिष्यति शरीरं यदवाप्नोति यच्चाप्युक्रामतीश्वरः। मन गृहीत्वैतानि संयाति वायुर्गन्धानि वासयान् श्रोत्रं चक्षुस्पर्शनं च रसनङ्ग्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते। उत्क्रामन्तं सितं वापि भुञ्जानं वा गुणान्वितं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चेनं पश्यन्त्यात्मन्यवस्थितं यतन्तो प्रकृतात्मानः नैनं पश्यन्ति चेतसः। यदादित्यगतं तेजः जगद्वासयते किलं यच्चन्द्रमसि यच्चार्णो तत्तेजो विद्धिमामकम्। गामाविश्य च भूतानि धारयाम्यहमोजसा पुष्णामि चौषधि सर्वाः सोमो भूत्वा रसात्मकः। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्। सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिज्ञानमपोहनं च वेदैश्च सर्वैरहमेव वेद्यः वेदान्तकृत्वेदविदेव चाहं। द्वाविमौ पुरुषौ लोके चरस्साक्षदेव च चरस्सर्वाणि भूतानि कूतस्तोक्षरुच्यते। उत्तमः पुरुषस्वन्यः परमात्मेजुदाहृतः यो लोकत्रयमाविश्य बिभर्तव्यय ईश्वरः। यस्माच्चरमतीतोऽहम् अक्षरादभिचोत्तमः अतोऽस्मि लोके वेदे च पठितः पुरुषोत्तमः। यो मामे मम सम्मूढो जानाति पुरुषोत्तमं स सर्वविद् भजति मां सर्वभावेन भारत। इति गुह्यतमं शास्त्रम् इत्थमुत्तं मया नग एतद्भूत्वा बुद्धिमान् स्यात् कृतकृत्यस्य भारत। ॐ तत्सत्श्रीमद्भवगीतासु परिषत्सु ब्रह्मविद्याय योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः।